नमस्सर्वेभ्यः। अद्य चम्पूरामायणस्य बालकाण्डे एकत्रिंशः पाठः, आगस्ट् मासस्य षष्ठः दिनाङ्कः। मङ्गलं कर्तुमिच्छन्ति? जानकी भगिनी।
नमस्ते भगिनी। लक्ष्मीं तनोतु नितरानपेक्षम्, अङ्घ्रिद्वयं निगमशाकीशिका प्रवालम्, हैरम्भमम्बुरुहडम्बरचौर्यनिघ्नम्, विघ्नाद्रिभेदशतधारदुरन्तरं नः पिता।
धन्यवादः। भगीरथस्य कथां पठन्तः स्मः। तत्र सूर्यवंशस्य राजा सगरः अश्वमेधयज्ञं कृतवान्। तस्य अश्वमेधाश्वः राक्षसवेषधारिणा इन्द्रेण चूरितः। अश्वस्य अन्वेषणं कुर्वन्तः सगरपुत्राः, 60,000 सगरपुत्राः भूमिं खनन्तः पातालं प्राप्य तत्र कपिलमहर्षेः आश्रमे अश्वं दृष्ट्वा कपिलः एव चोरः इति मत्वा तम् आक्रम्य कपिलस्य कोपाग्निना दग्धाः। ततः सगरः अश्वान्वेषणार्थं पौत्रम् अंशुमन्तं प्रेषितवान्। सः अंशुमान् पातालं गत्वा तत्र अश्वं लब्ध्वा दग्धान् पितॄन् दृष्टवान्। तस्मिन्नेव समये तेषां मातुलः गरुडः आगत्य सगरपुत्राणां सद्गति प्राप्त्यर्थं गङ्गा आनेतव्या इति सूचयामास। अंशुमान् अश्वेन सह प्रत्यागतः। यज्ञं समाप्य सगरः पुत्रशोकात् दिवङ्गतः। सगरस्य पौत्रः अंशुमान् राजा बभूव। बहुकालं राज्यं शासित्वा ततः पुत्रं दिलीपं सिंहासने उपावेश्य स्वयं तपः कृतवान्। दिलीपोऽपि स्वस्य कालानन्तरं पुत्रं भगीरथं राज्ये नियोज्य स्वयं गङ्गामानेतुं प्रयत्य सोऽपि दिवङ्गतः। ततः भगीरथः युवा एव पूर्वजानां कथां श्रुत्वा कथञ्चित् गङ्गाभवमानेतव्या इति सङ्कल्पं सकार। अमर्त्यसरितं मेने कर्तुम् अर्त्यतरङ्गिणी, ततो गोकर्णमासाद्य तपस्यति भगीरथे। ततः गोकर्णक्षेत्रं गत्वा तपः कर्तुं प्रवृत्तः। ततश्च शिवः देवो देवापगां वोढुम् अन्वमंस्त दयानिधिः, शिवः गङ्गां वोढुम् अङ्गीकृतवान्। एतावत्पर्यन्तं गत वर्गे दृष्टम्। अत्र कश्चित् प्रश्नः अस्ति। सगरः भृगोः प्रसादात् पुत्रान् प्राप इति, सामान्यतः तपश्चर्या इति देवान् उद्दिश्य क्रियते, अत्र ऋषेः अनुग्रहेण कथम् इति प्रश्नः। वस्तुतः अयं प्रश्नः मम मनसि अपि उत्पन्नः अध्ययनसमये। रामायणे कथमस्ति मूले इति द्रष्टव्यम् इति चिन्तितम्, एतावता न दृष्टं, दृष्ट्वा वक्ष्यामि। अग्रे पश्यामः। अग्रे इदानीं गङ्गावतरणं वर्ण्यते भोजेन। गङ्गा दिवः शिवस्य शिरः प्रति अवतरति। तस्य वर्णनम् एकेन श्लोकेन न, किन्तु पञ्चभिः श्लोकैः क्रियते भोजेन। कुलकम् इत्युच्यते। वयं सामान्यतः किं भवति, श्लोकः पूर्णः भवति, अर्थात् एकं क्रियापदं भवति, श्लोकस्य सर्वेषां पदानाम् अन्वयः तत्रैव तस्मिन्नेव क्रियापदे भवति। कदाचित् किं भवति, श्लोकद्वये अन्वयः भवति. कदाचित् श्लोकत्रये पूर्वमपि दृष्टं कुत्रचित् रावणस्य नामकरणम्. अत्र पञ्चानां श्लोकानां मिलित्वा एव अन्वयः उच्यते. तादृशस्य श्लोकपञ्चकस्य कुलकम् इति नाम उच्यते साहित्यशास्त्रे. सर्वत्र एकमेव क्रियापदं सर्वेषां श्लोकानां यानि पदानि भवन्ति तेषां तत्र अन्तिमश्लोके अन्वयः उच्यते. आदौ कुलकं पश्यामः, अनन्तरं तस्य अर्थः. अथ वीतीक यच्छन्न दिगन्त गगनान्तरा शशाङ्क शङ्ख संहिन्न तारामौक्तिकदन्तुरा तरङ्गाकृष्टमार्ताण्ड तुरङ्गा याति तारुणा फेनच्छन्न स्वमातङ्ग मार्गण व्यग्रवासवा आविशाखाशिखोन्नेय नन्दन द्रुमकर्षणा एकोदकनभो मार्ग दिङ्मूढ दिवसेश्वरा आवर्तकर्त सम्भ्रान्त विमान प्लव विप्लवा नीलजीमूत शैवाल कृतरेखा हरित्तटा अवलेपभराक्रान्ता सुरलोक तरङ्गिणी पपात पार्वती कान्त जटाकान्तारदहरे. सो अर्थम् अविज्ञाय अपि even without understanding anything, it is very easy to appreciate the appropriateness of these shlokas. Etavantam kalam anushtup chandasa eva laghubhihi padaihi bhojaha sarvam varnayan nasit. Gata saptahe pragata saptahe drishtaha shlokaha sarvepi tathaiva kathayaha varnanam atyantam saralam laghuni padani evam krutva झटिति गङ्गायाः प्रवाहः तस्य पदैः एव अनुभवितुं शक्यते. सो आल्मोस्ट् आल् दीस् वर्ड्स् इस् द होल् पाद इस् अ सिङ्गल् लाङ्ग् समास वर्ड्स् रैट्. सो जस्ट् द वर्ड्स् इट् सेल्फ् गिव् द इम्प्रेशन् आफ् अ फ्लोयिङ्ग् रिवर् इन् फुल् स्पीड् प्रवाह आफ् द गङ्गा अत्रैव अनुभवितुं शक्यते पदैः. कवित्वं तु तदेव अर्थसौन्दर्यं भवति, शब्दसौन्दर्यमपि भवति. अतः शब्दाः तेन तथैव प्रवाहरूपेण एव पदानि निर्गच्छन्ति. गङ्गाप्रवाहस्य अवतरणं यदा सः वर्णयति तत्र आदौ अन्तिमं श्लोकं दृष्ट्वा अनन्तरम् अन्यान् श्लोकान् पश्यामः. यतोहि अत्र आदौ श्लोकचतुष्टये यद्यदस्ति तत्सर्वमपि गङ्गायाः विशेषणम्. सुरलोकतरङ्गिणी नाम देवनदी गङ्गा, तस्याः विशेषणं सर्वम्. अतः आदौ अन्तिमं श्लोकं दृष्ट्वा अनन्तरम् अन्यान् श्लोकान् पश्यामः. अनुवक्तुमिच्छन्ति महादेवन्.
अवलेपभराक्रान्ता सुरलोकतरङ्गिणी
पपात पार्वतीकान्त जटाकान्तारगह्वरे
पपात पार्वतीकान्त जटाकान्तारगह्वरे पपात पार्वतीकान्त जटाकान्तारगह्वरे पदच्छेदः अवलेप धराक्रान्ता सुरलोकतरङ्गिणी पपात पार्वतीकान्त जटाकान्तार गह्वरे
गह्वरे सम्यक्. अवलेप भर आक्रान्ता अवलेप भराक्रान्ता सुरलोकतरङ्गिणी पपात पार्वती कान्त जटा कान्तार गह्वरे. सो पपात इति क्रियापदं, पतिता इत्यर्थः. का पपात सुरलोकतरङ्गिणी, सुरलोकस्य स्वर्गस्य तरङ्गिणी नदी ದೇವನದಿ ಗಂಗಾ ಪಪಾತ. ಕೀದೃಶಿ ಸುರಲೋಕ ತರಂಗಿಣಿ ಅವಲೇಪ ಭರಾಕ್ರಾಂತ. ಅವಲೇಪ ನಾಮ ಗರ್ವ, ಅಹಂಕಾರ. ಪೂರ್ವಂ ಸರ್ವಂ ವರ್ಣಯತಿ ಭೋಜ, ಕಥಂ ಸಾ ಸಂಪೂರ್ಣ ನಭೋಮಂಡಲಂ ಆಚ್ಛಾದ್ಯ ಸರಭಸಂ ಪತತಿ ಇತಿ. ತೇನ ಸ್ವಸ್ಯ ವೇಗೇನ ರಾಭಸ್ಯೇನ ಗರ್ವಿತ. ಸೊ ಅವಲೇಪಸ್ಯ ಗರ್ವಸ್ಯ ಭರಃ, ಭಾರಃ ಸಮಾನಂ. ಸೊ ಗರ್ವಸ್ಯ ಭಾರೇಣ ಆಕ್ರಾಂತ ಪೂರಿತ. ಗರ್ವಪೂರ್ಣ ಸತಿ ಸಾ ಸುರಲೋಕ ತರಂಗಿಣಿ ದೇವನದಿ ಗಂಗಾ ಪಪಾತ. ಕುತ್ರ ಪಪಾತ? ಪಾರ್ವತೀಕಾಂತ ಜಟಾ ಕಾಂತಾರ ಗಹ್ವರೆ. ಪಾರ್ವತೀಕಾಂತ ಶಿವ, ತಸ್ಯ ಜಟಾ ಕಪರ್ಧ. ಕಪರ್ಧ ಇತ್ಯುಚ್ಯತೆ ಅತೇವ ಶಿವ ಕಪರ್ಧೀ ಇತಿ. ಜಟಾ ಸಾ ಜಟಾ ಏವ ಕಾಂತಾರ. ಕಾಂತಾರ ಮಹಾರಣ್ಯಂ, ಯತ್ರ ಗಮನಂ ನಿರ್ಗಮನಂ ಅತ್ಯಂತಂ ಅಶಕ್ಯಂ ತಾದೃಶಂ ಮಹಾವನಂ ಕಾಂತಾರ ಇತ್ಯುಚ್ಯತೆ. ಸೊ ಶಿವಸ್ಯ ಪಾರ್ವತೀಕಾಂತಸ್ಯ ಜಟಾ ಏವ ಕಾಂತಾರ ಮಹಾರಣ್ಯಂ ತಸ್ಯ ಗಹ್ವರೆ. ಗಹ್ವರ ಗಹ್ವರಂ ಗುಹಾ, ಕುಹರ ಕುಹರಂ ಇತ್ಯುಚ್ಯತೆ. ಸೊ ದ ಕೇವ್, ದ ಕ್ಯಾವರ್ನಸ್ ಜಟ ಲಾಕ್ಸ್ ಆಫ್ ಶಿವ, ತತ್ರ ಸುರಲೋಕ ತರಂಗಿಣಿ ಪಪಾತ. ಸೊ ಅನ್ವಯ ಅವಲೇಪ ಭರಾಕ್ರಾಂತ ಸುರಲೋಕ ತರಂಗಿಣಿ ಪಾರ್ವತೀಕಾಂತ ಜಟಾ ಕಾಂತಾರ ಗಹ್ವರೇ ಪಪಾತ. ಸೊ ಗರ್ಭಭಾರೇಣ ಪೂರಿತ ದೇವನದಿ ಗಂಗಾ ಶಿವಸ್ಯ ಕಪರ್ಧರೂಪಸ್ಯ ಅರಣ್ಯಸ್ಯ ಮಹಾಕುಹರೇ ಪತಿತ. ಸೊ ಗಂಗಾ ಹೂ ವಾಸ್ ವೇಟ್ ಡೌನ್ ಬೈ ಆರಗನ್ಸ್, ಸೊ ಶೀ ಫೆಲ್ ಇನ್ ಟು ದ ಕೆವರ್ನಸ್ ಲಾಕ್ ಆಫ್ ಪರಮೇಶ್ವರ. ಸೊ ಅವಲೇಪ ಭರಾಕ್ರಾಂತ, ಅವಲೇಪಸ್ಯ ಭರ, ಅವಲೇಪ ಭರ, ಅವಲೇಪ ಭರೇಣ ಆಕ್ರಾಂತ. ದರ್ಪೋವಲೇಪೋ ವಷ್ಟಂಭ. ಸೊ ಗರ್ವ, ದರ್ಪ, ಅವಲೇಪ, ಅವಷ್ಟಂಭ ಇತ್ಯಾದೀನಿ ಪರ್ಯಾಯ ಪದಾನಿ. ಸುರಲೋಕ ತರಂಗಿಣಿ, ಸುರಾಣಾಂ ಲೋಕ ಸುರಲೋಕ, ಸುರಲೋಕಸ್ಯ ತರಂಗಿಣಿ. ಪಪಾತ, ಪತಲ್ ಗತೌ ಧಾತೋ ಲಿಟ್ಲಕಾರೆ ಪ್ರಥಮ ಪುರುಷೆ ಏಕವಚನಂ. ಪಾರ್ವತೀಕಾಂತ ಜಟಾ ಕಾಂತಾರ ಗಹ್ವರೆ. ಪಾರ್ವತ್ಯಾಃ ಕಾಂತಃ, ಪಾರ್ವತೀಕಾಂತಃ ಷಷ್ಠಿ ತತ್ಪುರುಷಃ. ಪಾರ್ವತೀಕಾಂತಸ್ಯ ಜಟಾ, ಪಾರ್ವತೀಕಾಂತ ಜಟಾ ಏವ ಕಾಂತಾರಃ. ಪಾರ್ವತೀಕಾಂತ ಜಟಾ ಕಾಂತಾರಃ, ಪಾರ್ವತೀಕಾಂತ ಜಟಾ ಕಾಂತಾರಸ್ಯ ಗಹ್ವರಂ ತಸ್ಮಿನ್. ಸಮಸ್ತ ಪದಂ ಭವತಿ ಪಾರ್ವತೀಕಾಂತ ಜಟಾ ಕಾಂತಾರ ಗಹ್ವರೇ ಇತಿ. ತತ್ರ ಕಾಂತಾರ ಶಬ್ದಃ ಅಮರಕೋಶೆ ಉಚ್ಯತೆ. ಮಹಾರಣ್ಯೇ ದುರ್ಗಪಥೆ ಕಾಂತಾರಂ ಪುಂ ನಪುಂಸಕಂ. ಕಾಂತಾರಂ ನಾಮ ಮಹಾರಣ್ಯಂ ದುರ್ಗಪಥಂ, ಯತ್ರ ಗಮನಾಗಮನಸ್ಯ ಪಂಥಾಃ ಮಾರ್ಗಃ ಅತ್ಯಂತಂ ದುರ್ಗಮಃ ಕಷ್ಟಂ ಭವತಿ. ತಾದೃಶಂ ಕಾಂತಾರಂ ಅಥವಾ ಕಾಂತಾರಃ ಪುನ್ ನಪುಂಸಕಂ, ಪುಲ್ಲಿಂಗೇ ನಪುಂಸಕಲಿಂಗೇ ಉಭಯಥಾಪಿ ಅಸ್ತಿ. ಗಹ್ವರಂ ದೇವಖಾತ ಬಿಲೇ ಗುಹ, ಬಿಲಂ ದೇವಖಾತಃ ಗಹ್ವರ ದೇವಖಾತಂ ಗುಹಾ ಗಹ್ವರಂ ಇತ್ಯಾದಿ ಸರ್ವಂ ಸಮಾನಂ ಪರ್ಯಾಯ ಪದ. ಅತ್ರ ಕುಲಕಂ ಮಯಾ ಉಕ್ತಂ, ಪರಸ್ಪರಾನ್ವಿತಾನಾಂ ಪಂಚಾನಾಂ ಶ್ಲೋಕಾನಾಂ ಸಮೂಹಃ ಕುಲಕಂ ಇತ್ಯುಚ್ಯತೆ. ಕಲಾಪಕಂ ಚತುರ್ಭಿಶ್ಚ ಪಂಚಭಿಃ ಕುಲಕಂ ಮತಂ ಇದೆ ಸಾಹಿತ್ಯ ದರ್ಪಣೇ ಅಸ್ತಿ. ಸೊ ಯದಿ ಚತ್ವಾರಃ ಶ್ಲೋಕಾಃ ಮಿಲಿತ್ವಾ ಅನ್ವಿತಾಃ ಭವಂತಿ ತದಾ ಕಲಾಪಕಂ ಇತ್ಯುಚ್ಯತೆ. ಪಂಚಾನಾಂ ಶ್ಲೋಕಾನಾಂ ಸಮೂಹಾನ್ವಯಃ ಕುಲಕಂ ಇತ್ಯುಚ್ಯತೆ. ಪಪಾತ, बहु युक्तम क्रियापदम उपयुक्तम पतनम सामान्यतः पतिता सा देवलोकात् आगता इति एकः अर्थः किन्तु गर्वः यत्र भवति तत्र पतनम भवत्येव इति ध्वनिः अपि अस्ति अतः एव पपात इति उपयुज्यते सो तत्र श्लोकः अपि अस्ति नीतिशतके यथा गंगायाः शिरश्चार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गात् अवनिमवनेश्चापि जलधिम् अधो गंगातेयं पदमुपगता स्तोकमथवा विवेकभ्रष्टानां भवति विनिपातशतमुखः इति भर्तृहरिः कथयति विवेकभ्रष्टानां येषां विवेकः नास्ति तेषां शतमुखः विनिपातः सर्वथा अधःपतनं भवत्येव तत्र गङ्गायाः एव उदाहरणं यच्छति शिरःशार्वं स्वर्गात् आदौ उपरि स्वर्गे आसीत् ततः शार्वं शर्वः शिवः शिवस्य शिरः प्रतिपतिता ततः महीधरं नाम हिमालयपर्वतं प्रति आगता ततः महीध्रादुत्तुङ्गात् अवनिं भूमिम् आगता अवनेश्चापि जलधिम् अवनेरपि अधोभागे भवति समुद्रः अनन्तरं समुद्रं गतः एवं क्रमशः तस्याः अधःपातः कथम् आसीत् इति भर्तृहरिः कथयति विवेकभ्रष्टानां भवति विनिपातशतमुखः अवलेपभराक्रान्ता सुरलोकतरङ्गिणी पपात पार्वतीकान्त जटाकान्तारगह्वरे कश्चित् प्रश्नः कुलकम् इस् अ मेट्रिकल् डेफिनेशन् नाट् मेट्रिकल् एस् इन् छन्दसः सम्बन्धः नास्ति कुलकस्य साहित्ये यत्र कुत्रापि श्लोकेषु पञ्चानां श्लोकानाम् अन्वयः मिलित्वा यत्र भवति अर्थात् पञ्चानां श्लोकानाम् आहत्य एकमेव क्रियापदं भवति तस्य श्लोकसमूहस्य कुलकम् इट्स् अ टेक्निकल् टर्म् यूस्ड् इन् अलङ्कारशास्त्र साहित्यशास्त्रस्य पारिभाषिकं पदं भवति कुलकम् इति व्याख्यानेषु बहुत्र दृश्यते अग्रे गच्छामः अत्र अस्ति सुरलोकतरङ्गिणी पपात पूर्वतनचतुर्षु श्लोकेषु सर्वाणि पदानि सुरलोकतरङ्गिण्याः विशेषणानि सो आल् आफ् देम् क्वालिफै गङ्गा कथं सा आगत्य पपात इति श्लोकः अनुवक्तुमिच्छन्ति राजलक्ष्मी
गुड् मार्निङ्ग्
अथ वीची च यच्छन्न
अथ वीची च यच्छन्न अथ वीची च यच्छन्न
दिगन्त गगनान्तरा
दिगन्त गगनान्तरा दिगन्त गगनान्तरा
शशाङ्क शङ्ख सम्भिन्न
शशाङ्क शङ्ख सम्भिन्न शशाङ्क शङ्ख सम्भिन्न
तारा मौक्तिक दन्तुरा
तारा मौक्तिक दन्तुरा तारा मौक्तिक दन्तुरा अथ वीचि चयच्छन्न दिगन्त गगना अन्तरा शशाङ्क शङ्ख सम्भिन्न तारा मौक्तिक अदन्तुरा
मौक्तिक दन्तुरा
तारा मौक्तिक दन्तुरा
अथ वीची चय छन्न दिगन्त गगन अन्तरा गगनान्तरा शशाङ्क शङ्ख सम्भिन्न तारा मौक्तिक दन्तुरा अथ
అనంతరం కదా, కిమనంతరం శివస్య అంగీకారానంతరం. పూర్వం కిమాసీత్ దేవో దేవాపగాం వోఢుం అన్నమంస్త దయానిధి. అత తస్య అనంతరం కిం అథ సురలోక తరంగిణి పపాత ఇత్యత్ర అన్వయః. సో కీదృశీ సురలోక తరంగిణి వీచీచయచ్ఛన్న దిగంత గగనాంతర. వీచి నామ తరంగః, వేవ్స్. సో వీచీనాం తరంగాణాం చయః, చయః సమూహః. వీచీచయేన ఛన్నం, ఛన్నం ఆచ్ఛాదితం, కవర్డ్. సో కవర్డ్ బై ద మాస్ ఆఫ్ వేవ్స్. వీచీచయ ఛన్నం దిగంత గగనాంతరం. సో దిగంత గగనం, సో నభోమండలం. దిగంత ఇస్ యాక్చువల్లీ హొరైజన్. సో గగనం, సో ద స్కై యాజ్ ఫార్ యాజ్ యూ కెన్ సీ టిల్ ద ఎండ్స్ ఆఫ్ ద డైరెక్షన్స్. సో దిగంత పర్యంతం యద్ గగనం తద్ దిగంత గగనం. సో దిగంత గగనస్య అంతరం, అంతరాళం. సో ద ఎంటైర్ స్కై యాజ్ ఫార్ యాజ్ క్యాన్ బి సీన్, దట్ ఈస్ ఆల్ ద హొరైజన్స్ ఆర్ ఛన్న, కవర్డ్ బై ద చయ సమూహ, ద గ్రూప్ ఆఫ్ waves, by the mass of Ganga's waves. So she, when she is coming from the Swarga, the entire Akasha is covered by her waves. So Vichi Chaya Channa Diganta Gaganantara. So Nabho Mandalam Purnam Api Gangayaha Tarangaihi Vyaptam Achharitam Ityartha. So Vichi Chaya Channa Diganta Gaganantara సురలోక తరంగిణి పపాత. పునః కీదృశీ సా శశాంక శంఖ సంభిన్న తారా మౌక్తిక దంతురా. సో శశాంక, శశాంక చంద్ర, శశస్య అంక చిహ్నం, శశః అంకం యస్య సః శశాంక. సో శశధర చంద్ర, చంద్ర ఏవ శంఖ అథవా కంబుః. సో శంఖ ఇస్ దట్ కాంచ్. తేన సంభిన్నాని సంగతాని కాని తారామౌక్తికాని, తారాః నక్షత్రాణి ఏవ మౌక్తికాని ముక్తామణయః. సో హిస్ గివింగ్ అన్ ఉపమాన. సామాన్యతః శంఖః భవతి, శంఖః ముక్తామణిభిః అలంక్రియతే. సో యు హావ్ డెకొరేటెడ్ కాంచెస్. సో ద కాంచ్ ఇస్ వైట్ ఇన్ కలర్, ఇట్ ఇస్ స్టడెడ్ విత్ పర్ల్స్. ఓకే, సో అత్ర ఆకాశే యదా గంగా ప్రవహతి తత్ర చంద్ర శశాంక ఏవ శంఖ కంబుః, తేన చంద్రేణ సంగతాని నక్షత్రాణి ఏవ మౌక్తికాని. సో ఇట్ కంపేరింగ్ చంద్ర టు అ కాంచ్ అండ్ ద స్టార్స్ టు ద పర్ల్స్ విచ్ ఆర్ స్టడెడ్ ఆన్ ద శంఖ. సో ఏతాదృశ్యై తారామౌక్తికై దంతురా, దంతురా వ్యాప్త ఇత్యర్థః. సో గంగా నదీ తారారూపై మౌక్తికై వ్యాప్త. సో అత్ర ఉపమానస్య మూలం జ్ఞాతవ్యం. సామాన్యతః నద్యామేవ మౌక్తికాని భవంతి. శంఖః, శుక్తిః, ముక్తామణయః సర్వే అపి నద్యాం భవంతి, రైట్? సో వి గెట్ ఆల్ ఆఫ్ దెమ్ ఇన్ ద రివర్స్, ద పర్ల్స్, ద శంఖ, ద షెల్స్ అండ్ ఎవ్రీథింగ్ దే ఆర్ ఫౌండ్ ఇన్ ద రివర్. అత్ర గంగానదీ యదా ఆకాశే ప్రవహతి తత్ర శశాంకః చంద్రః ఏవ శంఖః నక్షత్రాణి ఏవ ముక్తామణయః. సో చంద్రేణ సహ ముక్తామణయః తాః సర్వాః అపి ఆకాశగంగాయాం సంతి ఇత్యర్థః. సో శశాంకరూపః యః శంఖః తేన సంభిన్నాని సంగతాని తారామౌక్తికాని నక్షత్రరూపాణి మౌక్తికాని. సో తైహి దంతురా వ్యాప్త సురలోక తరంగిణి పపాత. సో తాత్పర్యం భవతి స్వస్య తరంగాణాం సమూహేన సంపూర్ణం నభోమండలం ఆచ్ఛాదయంతి చంద్రరూపేణ శంఖేన సంగతైహి నక్షత్రరూపైహి ముక్తామణిభిః వ్యాప్తా గంగా శివస్య జటాకుహరే పపాత. సో గంగా హూ covering the entire sky till the ends of the horizons with her waves, So filled with the pearls, that is the stars themselves as the pearls, and the Shankha called Chandra. So such Ganga, she alighted or came down, descended on Shiva's jata. So Athavi Chichaya Channa Diganta Gaganantara Shashanka Shankha Sambhinna Tara Mauktika Dantura. So these all these shlokas Uttamaha Abhyasaha Samasanam Vigrahasya. Yatra Dirghaha Samasaha Eshaha Samanya Niyamaha Yadyapi Samasta Padam Dirgham Bhavati Tathapi Samasaha Sarvesham Padanam Yugapat Na Bhavati. So Padadvayam Padadvayam Svikritya Svikritya Punah Punaha Samasaha Kartavyaha. So Samasasya Vigraha Karane Uttamaha Abhyasaha Atra Praptum Shakyate. Kepi Prayatnam Kartum Ichantiva. Would you like to try splitting these samasas? Aham sahayam karomi eva prayatnaha kartum shakyate. So it's all you can try. We'll take say vichi chayachanna diganta gaganantara shabdasya arthaha jnataha samasta padam vaktum prayatnam kartum ichanti ches kurvant. Anybody? You can try, there's nothing wrong in going wrong. Janaki Vadim. You have to unmute yourself.
Vichi nam chayaha. Vichi chayaha. Vichi chayaihi channaha. Vichi vichi chaya channa. Vichi chayaihi channa. Vichi
Kutra Vichi 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 What was
Channa?
Vichi Chai Channa Akashaha Gagana
Gaganantaram
Gaganantaram Vichi Chai Channa Vichi Chai Channa Diganta Diganta Gaganam Diganta Gaganam Diganta Gaganasya Antara Diganta Gaganasya Antaram Diganta Gaganantaram Vichi Chayaihi Channa Diganta Gaganantara Vichi Chaya Channa Diganta Gaganantara Shashankaha Eva Shankaha Shashanka Shankaha Shashanka Shankena Sambinnam Shashanka Sambinna
Sambinnani
Sambinnani Shashanka Sambinnani Tarahaeva Mokti Moktika Tarahaeva Mokti Mautikani, Nakshatrani eva Muktikani, Taraha eva Muktikani, Shashanka Shanka Sambinnaihi, Shashankena Sambinnam, Tara eva Muktika, Muktika Dantura, Yapta, Shashanka Shanka Sambinna, Tara Muktika Dantura.
Taramauktikaihi
dantura taramauktika dantura
samyak uttamam so vichi nam chayah vichi chayah so vichi chayena or vichi chayaihi ubhayathapi vaktum shakyate channam so kim channam diganta gaganantaram channam. So vichi chaya channam iti ekaha bhagaha idanim diganta gaganantaram ityasya vigraha. So dishamantaha digantaha digantasya gaganam diganta gaganam diganta gaganasya antaram diganta gaganantaram. So vichi chaya channam diganta gaganantaram yaya sa வீசீசயச்சன்ன திகந்த ககனாந்தரா. யயாசா ஆர் யஸ்யாசா உபயதாபி வக்தும் சக்யதே. சோ பங்கத் தரங்க ஊர்மிர்வா ஸ்திரியாம் வீசிஹி இத்யமரஹ. சோ தரங்கஹ ஊர்மிஹி வீசிஹி இத்யாதி. சத்யம் அந்தே பஹுவ்ரீஹி சர்வத்ர ஏதேஷு சாமான்யதஹ அந்தே பஹுவ்ரீஹி பவதி. சோ ஆல் திஸ் வில் ரெஃபர் டு ஃபைனலி த சுரலோக தரங்கிணி. சோ சசாங்கஹ ஏவ சங்கஹ சசாங்க சங்கஹ தாராஹ ஏவ மௌக்திகானி தாரா மௌக்திகானி. சோ சசாங்க சங்கேன சம்பின்னானி சசாங்க சங்க சம்பின்னானி காணி தாரா மௌக்திகானி. சோ சசாங்க சங்க சம்பின்னானி ச தானி தாரா மௌக்திகானி ச இதி கர்மதாரயஹ. சோ சசாங்க சங்க சம்பின்ன தாரா மௌக்திகைஹி தந்துரா தந்துரா வியாப்தா. சசாங்க சங்க சம்பின்ன தாரா மௌக்திக தந்துரா அசவீசீசயச்சன்ன திகந்த ககனாந்தரா சசாங்க சங்க சம்பின்ன தாரா மௌக்திக தந்துரா. அக்ரிம ஸ்லோகஹ. கேபி வக்தும் இச்சந்தி.
தரங்க ஆகிருஷ்ட மார்த்தாண்ட துரங்க ஆயாசித அருணா ஹேன சன்னஸ்வமாதங்க மார்கண வியக்ர வாசவ.
தரங்க ஆக்ருஷ்ட மார்த்தாண்ட துரங்க ஆயாசித அருணா ஃபேன சன்னஸ்வ மாதங்க மார்கண வியக்ர வாசவ. சமாசஸ்ய அவயவபூதானி பதானி லகூனி ஏவ தேஷாம் சயோஜனேன தீர்க்கம் பதம் உத்பாதிதம். சோ தரங்க தரங்காக உபயமபி புனஹ சுரலோக தரங்கிணி இத்யஸ்ய விசேஷணம். சோ தரங்க கங்காயாக தரங்காக வீசயஹ தைஹி ஆக்ருஷ்ட ஆக்ருஷ்டாஹ மார்கப்ரஷ்டாஹ. சோ கீதிருஷி சுரலோக தரங்கிணி தரங்கைஹி வீசிபிஹி ஆக்ருஷ்டாஹ மார்கப்ரஷ்டாஹ கே மார்த்தாண்ட துரங்காஹ. மார்த்தாண்டஹ சூர்யஹ தஸ்ய துரங்காஹ அஸ்வாஹ தைஹி ஆயாசிதஹ ஶ்ராந்தஹ அருணஹ. அருணஹ சூர்யஸ்ய சாரதிஹி. கிங் கதயதி கவிஹி யதா கங்கா ககனமார்காத் சரபசம் ப்ரவஹதி ததா ககனே சூர்யஹ சஞ்சரதி. சூர்யஸ்ய சப்த அஸ்வாஹ சப்த சப்திஹி இதி கத்யதே. சோ தே அஸ்வாஹ யதி ஹடாத் கஷ்டன ஜல பிரவாஹ ரதஸ்ய ரதம் ஆப்லாவயதி ததா அஸ்வாஹ ஜலஸ்ய ரபசேன ராபஸ்யேன மார்கப்ரஷ்டாஹ பவந்தி. யதா கங்கா ஆகாஷ மார்கேண பிரவஹதி ததா சூர்யஸ்ய அஸ்வாஹ தஸ்யாஹ ராபஸ்யம் அசஹமானாஹ மார்கப்ரஷ்டாஹ. தான் புனஹ நியந்த்ரயிதும் மார்க்கம் பிரதி ஆனேதும் சூரியஸ்ய சாரதிஹி अरुणः तेन महान् श्रमः ओढव्यः तेन सह श्रान्तः इति कविकल्पना. सो तरङ्गाकृष्ट तरङ्गैः आकृष्टाः ये मार्ताण्डतुरङ्गाः सूर्यस्य अश्वाः तैः आयासितः श्रान्तः अरुणः तेषां टु गेट् बेक् द कण्ट्रोल् आफ् द हार्सेस् विच् वेर् ड्राग्ड् अवे बै द फोर्स् आफ् गङ्गा फ्लोयिङ्ग् थ्रू द स्कै. सो अरुण द चारिटीर् आफ् सूर्य वास् टयर्ड् ट्रैङ्ग् टु गेट् देम् बेक् टु कण्ट्रोल् इत्यर्थः. सो तरङ्ग आकृष्ट मार्ताण्डतुरङ्ग आयासित अरुणः यया सा. सो यस्याः कारणेन अरुणः आयासितः श्रान्तः तादृशी सुरलोकतरङ्गिणी. पुनश्च फेनच्छन्द स्वमातङ्गमार्जन व्यघ्रवासव. फेनः नाम फ्राक् डिण्डीरम् इत्युच्यते. सो फेनैः डिण्डीरमण्डलैः छन्नः आच्छादितः. सो बै द फोम् आर् द फ्रात् आफ् गङ्गा द फ्रातिङ्ग् रिवर्. सो द फेनः सर्वदा शुभ्रवर्णः भवति किल. सो तैः फेनैः छन्नः आच्छादितः कः स्वमातङ्गः वासवस्य वासवः नाम इन्द्रः. इन्द्रस्य मातङ्गः गजः नाम ऐरावतः. ऐरावतः श्वेतवर्णीयः गजः. सो ऐरावत इस् सपोज् टु बि फुल्लि वैट् इन् कलर्. सो वेन् गङ्गा केम् रशिङ्ग् थ्रू द स्कै सो ऐरावत वास् लास्ट् इन् द फोम् आफ् द रिवर्. सो फेन छन्न सो हि वास् फुल्लि कवर्ड् बै द फोम् एण्ड् सिन्स् द एलिफेण्ट् इस् आल्सो वैट् इन् कलर् एण्ड् द फेयर् Phena is also white. Indra could not find where his elephant was. So, Phena channa swamatanga margana. Marganam nama anveshanam. So, adgajaha kutra iti anvishyan. Vyagraha sambhantaha vasavaha indraha yasyaha karanena. So, Ganga pravahasya phenaihi indrasya gajaha airavataha achyaditaha. सो तस्य गजस्य अन्वेषणे इन्द्रः अपि सम्भ्रान्तः. सूर्यस्य रथः मार्गभ्रष्टः. इन्द्रः गजस्य अन्वेषणे सम्भ्रान्तः. एतत् सर्वमपि यस्याः कारणेन तादृशी सुरलोकतरङ्गिणी. सो यदा गङ्गा आकाशात् भूमिम् अवतरति तदा आकाशे तस्याः वीचिभिः सूर्याश्वाः मार्गभ्रष्टाः. तेषां नियन्त्रणं कर्तुं प्रयतमानः सूर्यसारथिः अरुणः नितरां श्रान्तः. तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणा. पुनश्च सरभसं प्रवहन्त्याः तस्याः फेनैः शुभ्रवर्णः इन्द्रस्य गजः ऐरावतः आच्छन्नः. तम् अन्विष्यन् इन्द्रः अपि सम्भ्रान्तः. फेनच्छन्न स्वमातङ्गमार्गण व्यग्रवासवा. समासः केऽपि प्रयत्नं कर्तुमिच्छन्ति? महादेवन्
तरङ्गैः आकृष्टाः तरङ्गाकृष्टाः मार्ताण्डस्य तुरङ्गाः मार्ताण्डतुरङ्गाः.
सम्यक्.
तरङ्गाकृष्टाः मार्ताण्डतुरङ्गाः तरङ्गाकृष्टमार्ताण्डतुरङ्गाः. आयासितः अरुणः आयासितारुणः.
केन आयासितः?
तरङ्गाकृष्ट मार्ताण्डतुरङ्गैः आयासितः अरुणः तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणः.
अरुणः यया सा अथवा
आयासितारुणः. छन्नः फेन छन्नः स्वस्य मातङ्गः स्वमातङ्गः स्वमातङ्ग मार्गणे स्वमातङ्गस्य मार्गणं स्वमातङ्ग मार्गणम्
फेनच्छन्नः स्वमातङ्गः
फेनच्छन्नः स्वमातङ्गः फेनच्छन्न स्वमातङ्गः मार्गणे व्यग्रः मार्गणे व्यग्रः वासवः मार्गणव्यग्रवासवः फेनच्छन्न स्वमातङ्गस्य मार्गणे व्यग्रवासवः फेनच्छन्न स्वमातङ्ग मार्गणव्याग्रवासवः
तरङ्गैः आकृष्टाः तरङ्गाकृष्टाः मार्ताण्डस्य तुरङ्गाः मार्ताण्डतुरङ्गाः तरङ्गाकृष्टाः मार्ताण्डतुरङ्गाः तरङ्गाकृष्टैः मार्ताण्डतुरङ्गैः आयासितः तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितः अरुणः यया सा स्वमार्ताण्डः मार्तण्डः इति उभयं सूर्यस्य पर्यायपदेषु गण्यते विकर्तन अर्क मार्तण्ड मिहिर अरुण पूषणः इति अमरकोशे अस्ति फेन फेनैः छन्नः फेनच्छन्नः स्वस्य मातङ्गः स्वमातङ्गः फेनच्छन्नः स्वमातङ्गः फेनच्छन्न स्वमातङ्गस्य मार्गणम् फेनच्छन्न स्वमातङ्ग मार्गणे व्यग्रः फेनच्छन्न स्वमातङ्ग मार्गण व्यग्रः वासवः यया सा तरङ्गाकृष्टमार्ताण्ड तुरङ्गायासितारुणा फेनच्छन्न स्वमातङ्ग मार्गण व्यग्रवासवा अग्रिमश्लोकः केऽपि अनुवक्तुमिच्छन्ति सुधा भगिनि यु हेव् टु अन्म्यूट् योरसेल्फ्
नमस्ते
आविशाखाशिखोन्नेय
आविशाखाशिखोन्नेय आविशाखाशिखोन्नेय
नन्दनद्रुमकर्षणा
नन्दनद्रुमकर्षणा नन्दनद्रुमकर्षणा
एकोदकनभोमार्ग
एकोदकनभोमार्ग एकोदकनभोमार्ग
दिङ्मूढदिवसेश्वरा
दिङ्मूढदिवसेश्वरा दिङ्मूढदिवसेश्वरा आविः शाखा शिखा उन्नेय नन्दनद्रुमकर्षणा एक उदक नभोमार्ग दिक् मूढ दिवस ईश्वर दिवसेष दिवस ईश्वर
सम्यक् सम्यक् सो आविः शाखा शिखा उन्नेय नन्दनद्रुमकर्षणा एकोदक एक उदक एकोदक नभो मार्ग दिङ् मूढ दिवस ईश्वर दिवसेश्वर सो कीदृशी सुरलोक तरङ्गिणी आविशाखा शिखोन्नेय नन्दन द्रुमकर्षणा सो आविः आविर्भूताः नाम दृष्टाः सडन्ली अपियरिङ्ग् किम् आविर्भूतम् शाखानां शिखाः काण्डानाम् अग्रभागाः सो यदा गङ्गा आकाशे प्रवहति मध्ये मध्ये झटिति शिखानाम् अग्रभागः दृश्यते सो तद्दृष्ट्वा किं ज्ञायते तैः ताभिः शिखाभिः उन्नेयाः नाम अनुमेयाः टु बि गेस्ट्
their presence is not directly seen but has to be guessed by looking at the tips of the branches. So kesham upasthitihi unneya nandanasya nandanavanam indrasya udyanam tasya drumaha vrikshaha tesham karshanam vilekhanam yasyaha sa. So ganga yada pravahati tasyaha pravahena dandanavanasya vrikshaha sarvepi utpatitaha pravahena saha gacchanti. Kintu ganga pravahaha tavanasti vrikshaha na drishyate. So you cannot see the trees at all. The trees are completely engulfed by water. Kim drishyate kevalam shikhayaha agrabhadaha drishyate. So agrabhagam drishtva o ete agrabhagaha drishyate kintu vastutaha purnaha vrikshaha pravahena niyamanaha asti iti asmabhihi anumanam kartavyam bhavati. So the ganga pravahena niyamanaha nandanavanasya vrikshaha tesham agrabhagasya darshanena anumiyante. So tadrishani tadrishan nandanadruman karshanti ganga pravahati ityarthaha. So avishakha shikha unneya nandana druma karshana agrimam visheshanam asti ekodaka nabho marga dingmoodha divaseshwara ekodaka ekam udakam yasya kevalam jalam yatra yatra pashyati akashe sarvatra jalameva drishyate. So kevala jalaplutaha kaha nabho margaha akasha patha akashasya yaha margaha saha sampurnataya sarvasu dikshu jalena vyaptaha tena kim jatam divateshwaraha divateshwaraha suryaha dingmoodhaha digbhantaha maya kasyam dishi gantavyam. Suryaha purvasyam dishi udeti paschimasyam dishi astangatsyatiti satitihi ka paschimadik ka purva ka uttara kava dakshina iti digbhantaha suryaha yatra yatra pashyati sarvatra jalamasti kena margena gantavyam iti suryaha api na janati sma iti atishayoktireva tatra itannasti. So ganga pravahena nandanavanasya vrikshaha akrishtaha niyante sma tatrapi tesham prakandanam jalanimagnatvat prakandam nama moola kandam, the main stem is called the prakanda, the trunk of the tree. Kintu sahana drishyate prakandam tu jalanimagnam shakhayaha agrabhagaha eva drishyante sma yesham darshanena ime nandanadrumaha iti anumitihi karaniya. So it had to be guessed that the nandanadrumas were engulfed in water and were being carried by the force. Kincha sarvatra nabho mandalasya jalaplavitatvena suryaha api digbhantaha bhuva. So avishakha shikhonneya nandana drumakarshana ekodaka nabho marga dingmoodha divaseshwara samasaha. Anybody wants to try? प्रयत्नं कर्तुम् इच्छन्ति वा अन्ये केऽपि यैः एतावता नोक्तम् तादृशाः महादेवन् महोदय
शाखानां शिखाः शाखा शिखा शाखा शिखानां आविः आविशाखा शिखः
आविर्भूताः शाखा शिखाः आविः इत्यस्य आविर्भूतः इत्यर्थः. हा आविः शाखा शिखाः आविर्भूताः इति विग्रहः उच्यते.
आविः शाखा शिखाः आविशाखा शिखाः नन्दनस्य द्रुमाः नन्दनद्रुमाः आविशाखा शिखैः
शिखाभिः
शिखाभिः उन्नयनाः नन्दनद्रुमाः उन्नीयाः नन्दनद्रुमाः आविशाखा शिखोन्नेय नन्दनद्रुमाः तेषां
तर्षणं
यया सा आदिशाखा शिखोन्नेय नन्दनद्रुमकर्षणा एकं च तत् उदकं च एतोदकम्
एकम् उदकं यस्य सः एकोदकः अत्र नभोमार्गस्य विशेषणम् एकोदकः नभोमार्गः
एकम् उदकं यस्य सः एकोदकम् एकोदकः सोरि नभस्य मार्गः नभोमार्गः एकोदकेन
एकोदकः च असौ
एकोदकः च असौ नभोमार्गस्य एकोदक नभोमार्गः दिक्षु मूढः दिङ्मूढः दिवसः ईश्वरः दिवसेश्वरः
दिवसस्य ईश्वरः
दिवसस्य ईश्वरः दिवसेश्वरः दिङ्मूढश्चासौ दिवसेश्वरश्च दिङ्मूढ दिवसेश्वरः एकोदक नभो
एकोदक नभो मार्गेण दिङ्मूढः
ओके एकोदक नभो मार्गेण दिङ्मूढः एकोदक नभो मार्ग दिङ्मूढः एकोदक नभो मार्ग दिङ्मूढश्च असौ दिवसेश्वरश्च एकोदक नभो मार्ग दिङ्मूढ दिवसेश्वरः ययाता
हा बट् द्वास्ट्रन् इन्स्टेड् आफ् कर्मधारय सो एकोदक नभोमार्ग दिङ्मूढः दिवसेश्वरः यया सा
ओ बहुव्रीहि
हा बहुव्रीहि सम्यक् सो आविः शाखानां शिखाः शाखाशिखाः आविर्भूताः शाखाशिखाः सो अत्र आविशब्दस्यैव आविर्भूताः इत्यर्थः सो आविशाखाशिखाभिः उन्नेयाः आविशाखाशिखोन्नेयाः के नन्दनस्य द्रुमाः नन्दनद्रुमाः सो आविशाखाशिखोन्नेयाः नन्दनद्रुमाः आविशाखाशिखोन्नेय नन्दनद्रुमाणां कर्षणं यस्याः सा एकम् उदकं यस्मिन् सः एकोदकः नभसः मार्गः नभोमार्गः एकोदकः नभोमार्गः सो एकोदक नभोमार्गेण दिङ्मूढः सो एकोदक नभोमार्ग दिङ्मूढः दिवसेश्वरः सो दिवसस्य ईश्वरः दिवसेश्वरः यया सा और् यस्या सा आविशाखाशिखोन्नेय नन्दनद्रुमकर्षणा एकोदक नभोमार्ग दिङ्मूढ दिवसेश्वरा कुलकस्य अन्तिमश्लोकः अनुवक्तुमिच्छन्ति शारदा गोपाले
आवर्तगर्तसम्भ्रान्त
विमानप्लवविप्लवा नीलजीमूतशैवाल कृतरेखा हरित्तटा
ऋतरेखा हरिष्टका ऋतरेखा हरिष्टका आवर्त गर्त संभ्रांत विमान प्लव विप्लव नील जीमूर्त शैवाल कृत रेखा हरिहि तथा
हरिष्टका
हरिष्टका
सम्यक् आवर्त गर्त संभ्रांत विमान प्लव विप्लवा नील जीमूत शैवाल कृत रेखा हरिस्तटा सो कीदृशी सुरलोक तरंगिनी आवर्त गर्त संभ्रांत विमान प्लव विप्लवा आवर्ताह आवर्तः अंभसां भ्रमः whirlpool okay the rotating water the vortex or the whirlpool is called avarta so avartaha eva gartaha nama kuharani so the holes of the whirlpools of the river so avarta garteshu sambhantani paribhramamanani so avarta garteshu paribhramamanani so rotating in revolving in the holes of the whirlpools kim bhavati vimanani so yadasa akasha marga agacchati tasyaha jale nimagnani vimanani siddha charanani nam vimanani tasyaha avarteshu paribhramamanani asan so avarta garta sambhanta vimana vimanani vyomayanani te eva plavaha प्लवः नाम उडुपं लघु लघु नौकाः सो विमानानि लघु उडुप सदृशानि ऐ मीन् इवन् द बिग् द विमान लुक्स् लैक् स्माल् बोट् हू वर् बोबिङ्ग् अप् अण्ड् डौन् अण्ड् गेटिङ्ग् रोटेटेड् इन् द वर्ल्ड् पूल्स् आफ् द गङ्गा रिवर् सो तेषां विप्लवः विशिष्टं प्लवनं सो द बोबिङ्ग् मूमेण्ट् इस् काल्ड् विप्लव यस्यां सा सो आवर्त गर्त तस्याः आवर्ताः एव गर्ताः तेषु सम्भ्रान्तानि परिभ्रममाणानि विमानानि व्योमयानानि एव प्लवाः उडुपसदृशाः आसन् तेषां विप्लवः गङ्गायाम् आसीत् सो तादृशी गङ्गा नीलजीमूत शैवाल कृतरेखा हरित्तटा सो पुनः कीदृशी नीलजीमूत नीलाः जीमूताः नाम नीलमेघाः द ब्लाक् क्लौड्स् ते एव शैवालानि शैवालानि जलनीली इत्युच्यते कन्नडभाषायां पाचि इति कथ्यते द आल्गि सो वेर् एवर् वाटर् स्टाण्ड्स् सो देर् इस् अ लेयर् आफ् ब्लाकिश् ग्रीन् फङ्गस् विच् ग्रोज़् आन् इट् विच् इस् काल्ड् द आल्गि सो तत् शैवालम् सो नीलजीमूताः नीलमेघाः एव शैवालानि तैः कृताः विरचिताः रेखाः श्रेणयः सो तत्र किं वर्ण्यते कविना यदा गङ्गा अत्यन्तं रभसेन प्रवहति तदा आकाशस्य मेघाः सर्वेपि प्रवाहेण दूरोत्क्षिप्ताः सो दे आर् स्केटर्ड् अवे टुवर्ड्स् द एड्जस् आफ् द रिवर् and they form a series of dark lines on the edges of the river like algae would you know there are patches of algae especially in the algae always grows towards the shore not in the middle of the river so neela jeemuta shaivala neela meghaha eva shaivalaha taihi krita rekhaha so shrenayaha nirmitaha kutra harittataha harit nama दिक् दिशश्च हरितश्च ताः सो हरित् नाम दिक् दिशां तटानि अत्र गङ्गानद्याः तटानि दिगन्ताः एव सो द इट् इस् द होरैज़न् द एण्ड् आफ् द डिरेक्षन् विच् इस् द एक्चुलि फार्मिङ्ग् द बेङ्क् फार् द रिवर् तत्र तेषां हरित्तटेषु नीलमेघाः शैवालरूपेण श्रेणीकृताः दृश्यन्ते इत्यर्थः
सो गंगायाः जलभ्रमेषु आवर्तेषु भ्रममाणानि व्योमयानानि उडुपानि इव प्लवमानानि दृश्यन्ते स्म. सो द प्लेन्स् ऑफ द स्कै दे वर् सीन् बॉबिंग अप एंड डाउन एंड रिवॉल्विंग इन द वर्लपूल्स ऑफ द गंगा रिवर. जलस्य राभस्येन दूरोत्क्षिप्ताः नीलमेघाः. So the black dark clouds which were thrown away to the ends of the river by the force of the river. Diganteshu nadikule shrenikrataha shaivalaha iva drishyante sma. So those clouds were seen at the horizon like a series of algae growth on the edges of the river or on the banks of the river. Right? So atra samasam kartum. कोऽपि प्रयतते सुधा भगिनी. न श्रूयते अन्म्यूट् क्रियते. सुधा भगिनी न श्रूयते. Anybody else wants to try? I have unmuted you, so you should be able to unmute. Please try clicking on the microphone now. It says self-muted. So can you try to unmute now? No, not working. Yeah, no mic. ओके सो अहं वदामि समयः अपि अस्ति इति. एतद् समापयामः. आवर्तानां गर्तः द होल् आफ् द वर्ल्पूल्स्. सो आवर्तगर्तः आवर्तगर्तेषु सम्भ्रान्ताः. सो आवर्तगर्त सम्भ्रान्त आवर्तगर्त सम्भ्रान्तानि भवेत् वस्तुतः आवर्तगर्तेषु सम्भ्रान्तानि आवर्तगर्तसम्भ्रान्तानि विमानानि. आवर्तगर्तसम्भ्रान्तविमानानि एव प्लवाः. सो आवर्तगर्तसम्भ्रान्तविमानप्लवानां विप्लवः यस्यां सा. आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लव. नीलजीमूतशैवालकृतरेखा हरित्तटा. नीलाः जीमूताः नीलजीमूताः नीलजीमूताः एव शैवालाः. सो नीलजीमूतशैवालैः कृताः नीलजीमूतशैवालकृताः रेखाः येषां ते हरितां तटाः. अत्र हरित्शब्दस्य दिक् इत्यर्थः. हरितां तटाः हरित्तटाः. सो नीलजीमूतशैवालकृतरेखाः हरित्तटाः यया सा और यस्याः सा. सो आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा नीलजीमूतशैवालकृतरेखा हरित्तटा. सो दट् इस् द कुलक. सो अथ वीचीत यच्छन्नदिगन्तगगनान्तरा शशाङ्कशङ्खसंभिन्नतारामौक्तिकदन्तुरा तरङ्गाकृष्टमार्ताण्डतरङ्गा तुरङ्गायासि तारुणा फेनच्छन्नस्वमातङ्गमार्दणव्यग्रवासवा आविशाखाशिखोन्नेयनन्दनद्रुमकर्षणा एकोदकनभो मार्गलिङ्मूढदिवसेश्वरा ఆవర్త గర్త సంభ్రాంత విమాన ప్లవ విప్లవా నీలజీమూత శైవాల కృతరేఖా హరిత్తటా అవలేప భరాక్రాంత సురలోక తరంగిణి పపాత పార్వతీ కాంత జటాకాంత నగహ్వరే. సో ఏతాదృశీ సురలోక తరంగిణి గంగా పార్వతీ కాంత జటా కాంతార గహ్వరే పపాత శివస్య కపర్ద రూపస్య మహారణ్యస్య గుహాయాం పతితా ఇది గంగావతరణస్య వర్ణనం. సో అగ్రే కిం జాతం ఇది అగ్రిమవర్గే పశ్యామః. ప్రశ్నాః సంతి వా? మంగళం కృత్వ సమాపయనః. జానకీ భగిని
లక్ష్మీం తనోతు నితరానితరానపేక్షం మంద్రి ద్వయం నిగమశాఖీష్టా ప్రవాళం హైరంభమంబురహదంబర చౌర్య నిఘ్నం విజ్ఞాదిభేద శతధార దురంధరం.
ధన్యవాదాః. సో కశ్చిత్ ప్రశ్నః అస్తి, గహ్వర శబ్దస్య కాంతార శబ్దస్య తతః అర్థః ఇతి. సో కాంతారః మహారణ్యే దుర్గపథే కాంతారం. సో మహారణ్యం, సో అ హ్యూజ్ ఫారెస్ట్, దుర్గపథ విత్ వెరీ డిఫికల్ట్ పాత్స్ ఆర్ వేర్ దెర్ ఆర్ నో పాత్స్ టు ట్రావెల్. సో తాదృశం కాంతారం ఇచ్చ్యతే. గహ్వరం నామ గుహా, అ కేవ్. సో కిమర్థం కాంతారం ఇత్యుచ్యతే, గంగా తత్ర ప్రవిశతి బహిరాగంతుం మార్గం న ప్రాప్నోతి, అతేవ భోజేన కాంతార శబ్దః విశిష్య ప్రయుక్తః. అన్య కేపి ప్రశ్నాః సంతి వా? ధన్యవాదాః.